अथ षोडशोऽध्यायः श्रीभगवानुवाच अभयं सन्तु संशुद्धेर् ज्ञानयोग व्यवस्थितिः दानं दमश्च यज्ञश्च स्वाध्यायस्तपार्जवम् अहिंसा सत्यमक्रोधस्त्यागः शान्तेरपैशुनम् दयाभूतेषु लोलुप्त्वम् मार्दवम् ह्रीर्चापलम् तेजः क्षमः धृति शौचम् अद्रोहेनातिमानिता भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च अज्ञानम् चाभिजातस्य पार्थ सम्पदम् मासुरीम् दैवी सम्पद् विमोक्षाय निबन्धाय आसुरी मता मासु च सम्पदम् दैवीम् अभिजातो असि पाण्डव द्वौ भूत सर्गौ लोकेऽस्मिन् दैवासुरेव च दैवो विस्तर्षः प्रोक्ता आसुरम् पार्थ मे शृणु प्रवृत्तिं च निवृत्तिं च जनाना विदुरासुराः न शौचं नापि चाचारो न सत्यं तेषु विद्यते असत्यमप्रतिष्ठं ते जगत् आहुरनीश्वरम् अपरस्परसम्भूतं किमन्यत् कामहेतुकम् एतां दृष्टिमवष्टभ्य नष्टात्मानवल्पबुद्धया प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऐताः काममाश्रित्य दुष्पूरम् दम्भमानम् मदान्विताः मोहाद्गृहीत्वा सद्ग्राहान् प्रवर्तन्ते अशुचीव्रताः चिन्तामपरिमेयाम् च प्रलयान्तामुपाश्रिताः कामोपभोग परमा एतावदिति निश्चिताः आशापाशशतैर्बद्धाः कामक्रोत्परायणाः ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयान् इदमद्य मया लब्धम् इमं प्राप्से मनोरथम् इदमस्ति इदमपि मे भविष्यति पुनर्धनम् असौ मया हता शत्रुर्हनिष्ये च परानपि ईश्वरोऽहम् अहम् भोगी सिद्धोऽहम् बलवान् सुखी आढ्योऽभिजन्वानस्मि कोऽन्योऽस्ति सदृशो मया यक्षे दास्यामि मोदिश्य इत्यज्ञान्विमोहिताः अनेकचित्तविभ्रान्ता मोहजालसमावृताः प्रसक्ता कामभोगेषु पतन्ति नरके अशुचौ आत्मसम्भाविताः स्तब्धा धनमान्मदान्विताः यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वकम् अहङ्कारं बलं दर्पं कामं क्रोधं च संश्रिताः ममात्मपरदेहेषु प्रदिश्यन्तोऽभ्यसूयकाः तानहं दुषिता क्रूरान् संसारेषु नराधमान् क्षिपाम्यजश्रमशुभान् आसुरीष्वेव योनिषु आशुरीं योनिमापन्ना मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेय ततो यान्त्यध मां गतिम् त्रिविधं नरकस्यदं द्वारं नाशितम् आत्मनः कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् एतैर्विमुक्तः कौन्तेय तमो द्वारैस्त्रिभिर्नरः आचारत्यात्मनः श्रेयस्ततो याति परां गतिं यः शास्त्रविधिमुत्सृज्य वर्तते काम कारतः न स सिद्धिं वाप्नोति न सुखं न परां गतिं तस्माच्छास्त्रं प्रमाणं ते कार्यकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिह अर्हसि। ओम तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे दैवासुर संपद विभाग योगो नाम षोडशो अध्यायः।